आर्थी चेत् त्यजेत् विद्याम्, विद्यार्थी चेत् त्यजेत् सुखम्। सुखार्थी नः कुतो विद्या, कुतो विद्यार्थिनः सुखम्। दृष्टिपूतं न्यसेत् पादं, वस्त्रपूतं पिबेत् जलम्। सत्यपूतां वदेत् वाणीं, मनःपूतं समाचरेत्। धनमलब्धं काङ्क्षेत, लब्धं रक्षेत् प्रयत्नतः। रक्षितं वर्धयेत् सम्यक्, वृद्धं तीर्थेषु निक्षिपेत्। अक्रोधेन जयेत् क्रोधम्, असाधुं साधुना जयेत्। जयेत् कदर्यं दानेन, जयेत् सत्येन चानृतम्।